आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका रिंकू जोशी। आदौ मुख्यवार्ताः। लोकसभा निर्वाचनस्य अवशिष्ट चरणानां कृते प्रचाराभियानं तीव्रजातम्। प्रधानमन्त्री भाजपा दलस्य वरिष्ठ नेता च नरेन्द्र मोदी तेलंगाना राज्ये जनसभाम् आयोजितवान्। रूसी सेनायाः युद्धभूमिकायाः कृते भारतीय नागरिकानां तस्कर प्रकरणे केन्द्रीय अन्वेषण अभिकरणेन सीबीआई इत्यनेन चत्वारः आरोपिणः निगडितः। विमानसेविनः न्यूनतायाः कारणेन अशीतितोप्यधिकाः एयर इंडिया एक्सप्रेस विमानसेवाः निरस्तीकृताः। भारतीय ऋतु विज्ञान विभागेन अद्य पश्चिम बंगस्य गंगातटीय क्षेत्रेषु ओडिशायां च नारंग वाल्मीकि संचेतना प्रसारिता। अपि च क्रीडावार्तायाम् आईपीएल क्रिकेट प्रतिस्पर्धायां मालिकायाम् अद्य सायं सनराइजर्स हैदराबाद लखनऊ सुपर जॉयंट्स दलयोर्मध्ये प्रतिस्पर्धा भविष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य अवशिष्ट चरणानां कृते प्रचाराभियानं तीव्रं जातम्। अद्य प्रातः करीमल नगर लोकसभा क्षेत्रस्य वेमुलावाडायां जनसभां सम्बोधयन् प्रधानमन्त्री तथा भाजपा दलस्य वरिष्ठ नेता नरेन्द्र मोदी विगत दश वर्षेषु एनडीएस सर्वकारस्य उपलब्धीनां श्रेयः नागरिकान् दत्तवान्। प्रधानमन्त्रिणा भाजपा दलस्य वरिष्ठ नेता च नरेन्द्र मोदिना उक्तं यत् देशः जनानां वर्णस्य आधारेण अनादरं न स्वीकरिष्यति। तेलंगाना राज्यस्य वारंगल नगरे जनसभां सम्बोधयता श्रीमोदिना पूर्व प्रधानमन्त्रिणा पीवी नरसिंहा राव वर्यस्य विषये कांग्रेस दले आक्रमणं कृतम्। सः अवदत् यत् भाजपायाः नीतिः राष्ट्रप्रथमवेदि सह च अस्मिन् नीतेः कार्यं करोति। तत्रैव कांग्रेस बीआरएस इत्यादीनां दलानां परिवार प्रथम नीतिः अस्ति। एषा परिवार प्रथम नीतिः एव कारणं यत् कांग्रेसेन पीवी नरसिंहा राव वर्यस्य उपेक्षा अनादरः च कृतः। श्रीमोदिना उक्तं यत् एनडी पीवी नरसिंहा राव वर्यस्य सम्मानं करोति, तस्मै भारत रत्नेन पुरस्कारेण समलं करोति। प्रधानमन्त्रिणा जनानां आह्वानं कृतं यत् ते विकासाय मतदानं कुर्वन्तु। ये तेलंगाना राज्यस्य अहितं कुर्वन्ति तेषां कृते उपयुक्तं उत्तरं दातव्यम् इति। उत्तर प्रदेशे अद्य विभिन्न राजनैतिक दलानां बहवः शीर्षनेतारः स्वपक्षीय उम्मीदवाराणां कृते प्रचारं कुर्वन्ति। अद्य कांग्रेस दलस्य महासचिवः प्रियंका गांधी रायबरेली नगरे प्रथमं राजनैतिक सभां सम्बोधितवती। सा प्रोक्तवती यत् भागवा इति भाजपा दलं जनान् भ्रामयति। यदि तस्याः दलं सत्तां प्राप्नोति तर्हि आशा कार्यकर्तॄणां आंगनवाड़ी कार्यकर्तॄणां मनरेगा कार्यकर्तॄणां च वेगनं दुर्गुणं भविष्यति। समाजवादी पक्षस्य प्रमुखः अखिलेश यादवः अद्य शाहजहांपुरे सभायां भाजपायाः विषये अवदत् यत् दलं मिथ्या प्रतिज्ञां करोति। सः पश्चात् फरखुआबाद नगरे अपि दलस्य प्रत्याशी पक्षे राजनैतिक सभां सम्बोधयिष्यति। भाजपा दलस्य वरिष्ठ नेता तथा केन्द्रीय गृहमंत्री अमित शाहः अपि लखीमपुर खीरति मण्डले दलस्य प्रत्याशी तथा केन्द्रीय गृह राज्यमंत्री अजय मिश्रा टेनी इत्यस्य पक्षे राजनैतिक सभां सम्बोधितवान्। सः जनान् भाजपा दलाय मतदानं कर्तुं आह्वानं कृतवान्। रूसी सेनायाः युद्धभूमिकायाः कृते भारतीय नागरिकानां तस्कर प्रकरणे केन्द्रीय अन्वेषण अभिकरणेन सीबीआई इत्यनेन चत्वारः आरोपिणः निगडितः। केन्द्रीय अन्वेषण अभिकारिणाम् अनुसारि विदेशेषु लाभप्रद आजीविकायाः प्रलोभेन देशे सर्वत्र संचालित प्रमुख मानव व्यापार तन्त्रस्य अन्वेषणं विहितम्। अस्मिन् प्रकरणे सीबीआई इत्यनेन अभिकरणेन मुंबई केरलयोः अभियुक्तानां निगडनं विहितम्। अभिकरणेन उक्तं यत् एते व्यापारिणः रूसदेशे उच्च वेतनमानानां कार्याणां कृते सामाजिक अन्तर्जालमाध्यमेन तेषां स्थानीय कर्मिणां च माध्यमेन भारतीय नागरिकानां आकृष्टं संगठितं तन्त्ररूपेण कार्यं कुर्वन्तः आसन्। सीबीआई अनुसारं भारतीय नागरिकाः युद्धभूमिकास् प्रशिक्षिताः तेषां इच्छाविरुद्धं रूस यूक्रेन युद्धक्षेत्रे अग्रस्थानेष् नियोजिताः च आसन्। विमान सेवा प्रबंधनस्य कतिपयानां नीतीनां विरोधे प्रायः त्रिशताधिकाः विमान सेविनः सामूहिक रुग्णावकाशं स्वीकृतवन्तः, येन कारणेन अशीतितोप्यधिकाः एयर इंडिया एक्सप्रेस विमान सेवाः निरस्ताः, येन देशस्य विभिन्न क्षेत्रेष् निजी विमान सेवायाः सेवाः प्रभाविताः जाताः। गतरात्रौ केरलस्य चत्वारि अन्ताराष्ट्रिय विमानस्थानकानि सम्प्रति अवरुद्धानि सन्ति, यतः कोचीन अन्ताराष्ट्रिय विमानस्थानके चत्वारि अन्ताराष्ट्रिय विमानसेवा, बेंगलुरुतः एकं च अन्ताराज्यीय विमानसेवा विमानपत्तन विभागेन निरस्तीकृतानि। बाधित अन्ताराष्ट्रिय सेवाष् शारजाह, बहरीन, दमाम, मस्कट चेत्यादीनां विमानयानि सन्ति। यात्रिणः विमान विघटनस्य विषये विमानपत्तने सम्प्राप्य एव ज्ञातवन्तः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय नाम कृते आपत्तिपूर्ण टिप्पणी विषये भाजपा दलेन अद्य कांग्रेस नेतुः सैम पित्रोदा इत्यस्य आलोचना कृता। नवदिल्ल्यां वार्ताहरान् संबोधयता दलस्य प्रवक्त्रा सुधांशु त्रिवेदिना उक्तं यत् पित्रो महोदयेन भारतीय संस्कृतिभिः सममेव देशस्य जनानाम् अपि अपमानं कृतम्। सः अवदत् यत् यथा यथा लोकसभा निर्वाचनं प्रचलति तथा तथा कांग्रेस दलस्य चरितं विचारं च अग्रे आयाति। त्रिवेदी महोदयः आरोपितवान् यत् कांग्रेस दलस्य समग्र विचारधारा जनानां विभाजनस्य विषये एव अस्ति। दलस्य नेता केन्द्रीय मंत्री च राजीव चन्द्रशेखरः आरोपितवान् यत् पित्रो महोदया टिप्पणी कांग्रेसस्य मानसिकता प्रकाशयति। पूर्वं पित्रो महोदयेन देशस्य विभिन्न भागेभ्यः भारतीयानां चीनी, अफ्रीका, अरब, श्वेतवर्णीयैः सह तुलना कृता अस्ति। भारतीय ऋतु विज्ञान विभागेन अद्य पश्चिम बंगस्य गंगातटीय क्षेत्रेष् ओडिशायां च नारंग वाणिकी संचेतना प्रसारिता। तेन इदमपि प्रोक्तं यद् देशस्य पूर्व दक्षिण द्वीपीय क्षेत्रेष् उष्णतायां अद्यारभ्य न्यूनता यास्यति, यतोहि एतेष् आगामि केषुचित् दिवसेष् वज्रपातेन सहैव वृष्टेः संभावना अपि दृश्यते। विभागेन अनुमानितं यत् आगामि दिनद्वयं यावत् राजस्थान पश्चिम मध्य प्रदेशे एवमेव तापतरंगस्य स्थिति यथावदेव प्रचलिष्यति। ऋतु विज्ञान विभागेन प्रोक्तं यत् आगामि पंचदिनानि यावत् गुजरात, तमिलनाडु, पुडुचेरी, केरल इत्यादिषु क्षेत्रेषु उष्ण आर्द्र स्थिति अद्य प्रभृति एतवेव भविष्यति। विभागस्य कथनम् अस्ति यत् पश्चिम राजस्थानं विहाय उत्तर भारतस्य अधिकांश भागेष् अधिक तापमान परिवर्तनस्य कोऽपि संभावना नास्ति, यत्र पश्चिम राजस्थाने आगामि त्रिदिवसेष् तापमानं 2-3 डिग्री सेल्सियस पर्यन्तं वर्धयिष्यति। आईपीएल क्रिकेट प्रतिस्पर्धाया मालिकायाम् अद्य हैदराबादस्य राजीव गांधी अन्ताराष्ट्रिय क्रीडांगणे सनराइजर्स हैदराबाद लखनऊ सुपर जॉयंट्स दलयोर्मध्ये सायं 7:30 प्रतिस्पर्धा भविष्यति। तत्रैव गतसायं दिल्ल्याः अरुण जेटली क्रिकेट क्रीडांगणे दिल्ली कैपिटल्स दलेन राजस्थान रॉयल्स दलं 20 धावनांकैः पराजितम्। इति वार्ताः।